क्रियते भगवद्विष्णुमायया तयार्थमेष वैश्यश्च तथैवान्ये विवेकिनः मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे कामकैः महाराजशरणम् परमेश्वरे आराधितासैव नृणाम् भोगः सर्गापवर्गदा श्रुत्वा सुरथः सदनाधिपः प्रणिपत्यमहाभागम् तमृशिम् संसितौ रथम् निर्विण्णाति ममत्वेन राज्यापहरणेन च जगामसद्यस्तपसे स च वैश्यो महामुने सन्दर्शनार्थमम्बायानदेवदिन संस्थितः वैश्यस्तपस्ते वे देवे सोक्तम् परम् जपन् तो तस्मिन् पुलिरे देव्या कृत्वा मूर्तिम् महेमये अर्हणाम् चक्रहस्तस्याग्निपुष्पधूपाग्नितर्पणे निराहारौ यथाहारौ सन्मनस्थौ समाहितौ रजतस्तौ बलिम् चैव एवम् समाराधयतोऽस्त्रिभिर्वर्षयतात्मनाः परिदृष्टा जगद्धात्रे प्रत्यक्षम् प्राहचण्डिका येऽव्युवाच यत्प्राच्यते त्वया भूपत्वया च कुलनन्दना मत्तस्तत्प्राप्यताम् सर्वम् परिदृष्टा ददामि तत् मार्कण्डेय उवाच अतो वव्रेण को राज्यमविभ्रंशन्यजन्मने अत्रैव जनिजम् राज्यम् हतशत्रुबलम् बलात् सोऽपि वैश्यस्ततो ज्ञानम् वव्रेणमानसः ममेत्यहमिति प्राज्ञः सङ्गमिच्छति कारकम् देव्युवाच सर्वैरहोभिर्नृपते सम्राज्यम् प्राप्स्यते भवान् अत्वारिपोरस्खलितम् तव तत्र भविष्यते मृतश्च भूयः सम्प्राप्य जन्मदेवाद्दिवस्वतः सावर्णिको नामनर्भवान् भवि भविष्यते वैश्यवर्य त्वया यश्च वदोऽस्मत्तोऽभिवाञ्छितः त्वम् प्रयच्छामि संसिद्धे तव ज्ञानम् भविष्यते मार्कण्डेय उवाच इति दत्त्वा तयोर्देवे यथाभिलषितम् वरम् अभोवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता एवम् देव्या वरम् लब्ध्वा सुरथः क्षत्रियऋषभः सूर्याज्जन्म समासाद्य सावन्निर्भविता मनः इति दत्तादयोर्देवे यथाभिलषितम् वरम् भगवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता एवम् देव्या वरम् लब्ध्वा सुरथः क्षत्रियऋषभः सूर्याज्जन्म समासाद्य सावन्निर्भविता मनः स्वस्तिष्ठे मार्कण्डेय पुराणे सूर्यसावन्यके मन्वन्तरे देवे महात्मे सुरथवैश्ययोर्विधप्रदानम् जगदम्बार्पणमस्तु सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके